राम गीता जी का पाठ दसवां अध्याय प्रारंभ से श्लोक 11 तक। राम
वसुदेव सुसंदेव कंसजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम्। श्री भगवान वाचि भूय महाबाहो शृंगे परम ये हम प्रियमाना भोक्ष्यामितकामया न मे विदुः सुरगणा अहमादेवाना महर्षीनां च सर्वश यो मामजमनादेश वेत्तिलोकमहेश्वरम् असम्मूढसमात्येषु सर्वपापी प्रमुच्यते बोधिर्ज्ञानमसम्मोह क्षमा सत्यं दमः समः सुखं दुःखं भवो भावो भयं चाभरमेव च अहिंसा समता तुष्टि सबोदानं यशो यशो भवन्ति भावभूतानां मत एव पृथग्विदा महर्षयः सप्तपूर्वे चत्वारो मनवस्तथा मद्भावा मनसा जाता लोक इमाः प्रजा एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः सोऽविकम्पेन योगेन युज्यते नात्र संशय अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ति मां दुराभावसमन्विता मच्चित्ता मद्वत् प्राणा बोधयन्तः परस्परम् कथयन्तश्च मां नित्यम् तोष्यन्ति च रमन्ति च एषां सततयुक्तानाम् अजतां प्रीतिपूर्वकम् ददामि बोद्धयोगं तं येन मामुपयान्ति ते तेषामेवानुकम्पाथ मम ज्ञानजं तम नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्यता तेषामेवानुकम्पाथ मम ज्ञानजं तम नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्यता वसुदेव सुतं देवं कंसजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्।
हरिशरणं 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 हरे शरणम् हरि शरणम् हरि शरणम् हरि शरणम् Hare Saranam, 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 Hare Saranam.